आदित्यस्य नमस्कारं ये कुर्वन्ति दिने दिने जन्मान्तरसहस्रेषु दारिद्र्यं नोपजायते अकालमृत्युहरणं सर्वव्याधिविनाशनं सूर्योपादोदकं तीर्थं जठरे धारयाम्यहं शरीरे जर्जरीभूते व्याधिग्रस्ते कलेवरे औषधं जानवीतोऽयं वेद्यो नारायणो